इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। पहलगाम आतंक्याक्रमणस्य अनन्तरं पाकिस्तानं विरुध्य सुरक्षा विषयक मन्त्रिमण्डल समित्या कृत कार्याचरणानां विषये समेषां दलानां नेतारः स्वसमर्थनं प्रकटितवन्तः। नवदिल्ल्यां संसदभवन परिसरे प्रशासनेन समाहूते सर्वदलीयोपवेशनावधौ आतंकवादं विरुध्य तेन च कृतस्य सम्भाव्य कार्यस्य च आश्वासनमपि प्रशासनं प्रदातुं प्रकटितवन्तः। वार्ताहरैः सह सम्भाषमाणः संसदीय कार्यविषयक मन्त्री किरेन रिजिजुः अवदत् यत् सर्वैः दलैः आतंक्याक्रमणे स्वचिन्ता प्रकटिता, स्वसमर्थनमपि प्रदत्तम्। मन्त्रिणा अग्रे प्रतिपादितं यत् उपवेशनावधौ गुप्तचरविभागस्य गृहमन्त्रालयस्य च अधिकारिणः सदस्येभ्यः घटनायाः विषये सूचनाः प्रदत्तवन्तः। श्री रिजिजुः अवोचत् यत् सम्बद्धाधिकारिभिः भविष्यकाले एतादृशाः घटनाः रोद्धुम् उत्थाप्यमानेषु प्रबन्धनोपायेष्वपि सूचना प्रकटिता।
सारे पॉलिटिकल पार्टी सरकार के साथ खड़ा है और सब पार्टी के नेताओं ने एक ही आवाज में कहा है कि सरकार जो भी कदम उठाएगा साथ देंगे। और मैं मानता हूं कि आज के इस महत्वपूर्ण ऑल पार्टी बैठक में जो हमने स्पिरिट अडॉप्ट किया है कि एकजुट होकर के लड़ाई लड़ेंगे आतंकवाद के खिलाफ, वो आगे भी जारी रहेगा।
लोकसभायां विपक्ष दलीयो नेता राहुल गांधी अपि प्रत्यपादयत् यत् सर्वे जनाः पहलगामातंक्याक्रमणं निन्दितवन्तः, तथा च विपक्षेण प्रशासनेन उत्थाप्यमानाय कार्याचरणाय पूर्ण समर्थनमपि प्रकटितम्। होराद्वयं यावत् प्रचलितेऽस्मिन् उपवेशने 15 विभिन्न राजनीतिकदलानां नेतारः सहभागं कृतवन्तः। भारतेन पहलगामातंक्याक्रमणम् अभिलक्ष्य पाकिस्तानदेशीयानां नागरिकाणां तात्कालिकप्रभावेन पारगमनानुमतिपत्रसेवाः निरस्तीकृताः। भारतद्वारा पाकिस्तानदेशीयेभ्यः नागरिकेभ्यः प्रदत्तं सर्वं वर्तमानवैधं वीजापत्रम् अस्य मासस्य 27 दिनांकात् निरस्तं भविष्यतीति। एतदतिरिच्य चिकित्सकीय पारगमनानुमतिपत्रमपि मेडिकल वीजा इतीदमपि अस्य मासस्य 29 दिनांकं यावदेव वैधं भविष्यति। अत्रावधौ प्रशासनेन सिन्धुजलसन्धिं स्थगयितुम् आधिकारिकी सूचना अपि प्रसारिता। प्रधानमन्त्री नरेन्द्रमोदी सबलतया प्रतिपादितवान् यत् आतंकवादेन राष्ट्रस्य आत्मा कदापि विच्छिन्नः नैव भविष्यति। असौ प्रतिज्ञापितवान् यत् भारतं प्रत्येकस्य आतंकवादिनः तस्य च समर्थकानाम् अभिज्ञानं करिष्यति, अन्वेषयिष्यति, दण्डयिष्यति च। राष्ट्रिय पञ्चायती राजदिवसावसरे बिहारस्य मधुबनी जनपदे प्रधानमन्त्री एकां जनसभां सम्बोधयन् एतत् सर्वं प्रकाशितवान्। सेनाप्रमुखः जनरल उपेन्द्र द्विवेदी अद्य दुरापादितं पहलगामातंकीयाक्रमणं निध्याय जम्मू कश्मीर राज्यं प्रति यास्यति। सूत्रानुसारि सेनाप्रमुखः एषः एतस्मिन् क्षेत्रे सुरक्षास्थितिमपि अवलोकयिष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य पोप फ्रांसिस इत्येतस्य राजकीये अन्त्येष्टि संस्कारे भागं ग्रहीतुं वेटिकन सिटी इत्येनं नगरं प्रति द्विदिवसीय यात्रार्थं गच्छतीति सूच्यते। राष्ट्रपतिः मुर्मुः भारत प्रशासन पक्षतः संवेदनामपि प्रकटयिष्यति। भारतस्य आयसोद्योगः स्वभविष्यम् आधृत्य नवीनेन आत्मविश्वासेन पूरितो विद्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। मुम्बईनगरे आयोजितस्य इण्डिया स्टील इत्येतस्य 6th अन्ताराष्ट्रिय प्रदर्शनी सम्मेलनस्य च उद्घाटनसत्रे प्रधानमन्त्री एतत् उक्तवान्। आईपीएल इत्येतस्यां 20-20 क्रिकेट मालिकायां ह्यः रात्रौ क्रीडिते द्वन्द्वे बैंगलूरुनगरस्य एम चिन्नास्वामी क्रीडांगणे रॉयल चैलेंजर्स बैंगलूरुदलेन राजस्थान रॉयल्स दलं 11 धावनांकैः पराभूतम् इति वार्ताः।